सम्प्रति विषयः अस्ति स्नेहस्य प्रत्यक्षग्राह्यत्वम् इति. स्नेहस्य प्रत्यक्षग्राह्यत्वम् इति विषयस्य सन्दर्भे अस्माभिः दृष्टम् आसीत् यत् सिद्धान्तिनः मतम् अस्ति यत् स्नेहः चक्षुषा दृश्यते अपि च त्वचा च स्पृश्यते इति. इत्युक्ते स्नेहः द्वीन्द्रियगुणः इति सिद्धान्तिनः वदन्ति. तद्विरुद्धमतमस्ति प्रतिपक्षिणः. तेन अङ्गीकुर्वन्ति यत् स्नेहः प्रत्यक्षग्राह्यः इति. ते तु पृच्छन्ति यद् अस्तु, किम् अस्ति स्नेहे तादृशं येन स्नेहः दृश्यते अथवा त्वचा स्पृश्यते, तादृशं किम् अस्ति स्नेहे इति प्रतिपक्षिणः मतमस्ति. तर्हि तस्य विषये एकं करपत्रं प्रवर्तमानम् अस्ति. अधुना वयं यत्र स्मः तत्र एकः श्रोता आगत्य पृच्छति. प्रथमतया प्रतिपक्षी वदति स्नेहः गुणः, क्षम्यतां, पिण्डीभावः इति गुणः अस्ति. स्नेहेन जायमानः गुणः पिण्डीभावः इति, तद् कार्यम् अस्ति इति वदति. तदनन्तरं पिण्डीभावः एव क्रिया अपि अस्ति इति वदति. तर्हि एतत् श्रुत्वा कश्चन श्रोता अधुना पृच्छति, अस्तु गुणः अस्ति वा पिण्डीभावः अथवा किम् अस्ति, क्रिया अस्ति वा इति. तद्विषये किञ्चित् चर्चां कुर्मः अद्य. तर्हि शुकवनमहोदय आरब्धुम् इच्छति वा? एवं कुर्मः, किञ्चित् पृष्ठभागे गत्वा पठनम् आरभामः, येन पुनस्मरणमपि स्यात्. तत्र अधुना मम नितरां भ्रमः व्युत्पन्नः इति श्रोता वदति, पश्यति.
प्रथमादारभ्य
कृपया
श्रोता. अधुना
एकनिमिषं महोदय, एकनिमिष. सर्वे प्राप्तवन्तः किं यत्र महोदय पठति? अधुना मम, हा अधुना मम नितरां भ्रमः. अस्तु महोदय.
श्रोता, अधुना मम नितरां भ्रमः व्युत्पन्नः. एतावता मया चिन्तितम् आसीत् यत् पिण्डीभावः विलक्षणसंयोगः गुणीभूतः, किन्तु इदानीं श्रूयते यत् पिण्डीभावः क्रिया इति वा इति. श्रोता यः सिद्धान्तिनः अपि च पूर्वपक्षिणः मध्ये यत् संवादं प्रचलन् सन्ति तत् श्रुत्वा तत्र प्रतिपक्षी वदन् आसीत् पिण्डीभावः इति क्रिया इति. तत् श्रुत्वा श्रोता पृच्छति प्रतिपक्षं प्रति, विद्याधर्यामपि दत्तमस्ति पिण्डीभावः विलक्षणसंयोगः इति एव, अतः तत् गुणीभूतः इति. किन्तु इदानीं पूर्वपक्षी वदति पिण्डीभावः क्रिया इति, तस्य प्रसङ्गे श्रोता पृच्छति प्रतिपक्षी प्रतिपक्षीं प्रति पिण्डीभावः क्रिया इति वदति वा इति. प्रतिपक्षी वदति सत्यं, वस्तुतः पिण्डीभावः इति क्रिया एव. पृथक् पृथक् विद्यमानचूर्णस्य कणाः एकत्रीभवन्ति किल, इत्युक्ते एकः कणः अन्येन कणेन सह दृढं संयुज्य तिष्ठति, स एव पिण्डीभावः. चूर्णस्य कणाः एकत्रीभूय संयुज्य तिष्ठति इति एका क्रिया इति पूर्वपक्षी वदति. पूर्वपक्षी वदति पुनः पिण्डीभावः क्रिया एव इति. किमर्थम् इत्युक्ते पूर्वं चूर्णाः कीदृशम् आसीत्, पृथक् पृथक् आसीत् इति. इदानीं किम् अभवत्, ते एकत्री भूय इत्युक्ते संयुज्य परस्परं संयुज्य, केवलं संयुज्य नास्ति, दृढं संयुज्य एकत्र तिष्ठति. तेन कारणेन तत्र तेषाम् आकर्षणं धारणमपि मिलित्वा भवितुम् अर्हति इति कारणतः तत् एकत्रीभूय, ते कणाः एकत्रीभूय तिष्ठन्ति इति कृत्वा तत् क्रिया एव. इति पूर्वपक्षी वदति.
हा हा, समीचीनम्. अस्तु तर्हि श्रोता पृच्छति, अपि च महोदयेन यथा उक्तं प्रथमं यद् न आसीत् अधुना किञ्चित् भिन्ना स्थितिः अस्ति, तथा भूत्वा तिष्ठन्ति कणाः. तिष्ठति इति अपि एका क्रिया खलु इति मम तथा अहम् अवगच्छामि. अनेन पिण्डिभावः इति एका क्रिया स्यात् इति प्रतिपक्षी वदति.
भगिनि, अत्र इत प्रतिपक्षी करपत्र आरम्भे तस्य पक्षः तु अनुमानेनैव ज्ञातुं शक्यते, स्नेहः इति गुणः जले वर्तते इति. सः एव प्रतिपक्षी वा?
सत्यम्.
इदानीमपि
आम् आमामाम् इति अस्ति. तदर्थं मया किञ्चित् उक्तं पुनस्मरणत्वेन, यतोहि अग्रे गत्वा गत्वा विस्मरणं स्यात्. तर्हि प्रतिपक्षिणः मतमस्ति न दृश्यते अपि च न स्पृश्यते, केवलं पिण्डीभावं दृष्ट्वा अनुमातुं शक्यते इति. सिद्धान्ती सः यः वदति यत् चक्षुषा दृश्यते त्वचा स्पृश्यते इत्युक्ते प्रत्यक्षग्राह्यत्वं ग्राह्यत्वम् अस्ति स्नेहस्य इति. अस्तु, अधुनापि तथा श्रोता इति तृतीयः कश्चन
यः.
अस्तु अग्रे सरला भगिनि, एकनिमिष. केनचित् आगतं खलु नूतनतया? कोऽपि अस्ति नूतनतया? अजितमहोदय इति भाति खलु.
नमस्कारः अजितः.
नमस्कारः महोदय. अस्तु भगिनि.
श्रोता, एतावता मया चिन्तितं यत् उत्तेक्ष्मण आपेक्ष्मण
आकुञ्चन
उत्क्षेपण अपेक्षण अपेक्षपण अकुञ्चनं प्रसारं गमनं गमनानि पञ्चकर्माणि इति तादृश एव क्रिया भवन्ति. श्रोता पृच्छति विद्याधर्यां यथा दत्तमस्ति पञ्च क्रियाणि अस्ति, ते उत्तेक्ष्मण अपेक्षमाण
अकुञ्चन उत्क्षेपयति इति कन्दुकम् उत्क्षेपयामि
उपरि गच्छति अपेक्षमाण अधो आगच्छति
अपक्षेपण
अपेक्षमाण अकुञ्चन अस्ति एकत्र करोति प्रसारं प्रसरयति गमन क्रिया पञ्चक्रियाणि अस्ति पञ्चकर्माणि तादृश केवलम् अस्ति पिण्डीभाव इति न दत्तम् अस्ति तेषु कर्माणि. प्रतिपक्षी वदति ता क्रिया तु प्रक्रियारीत्या उक्ता केवलम् उदाहरणानि, अत्र पूर्वं करणा पृथक् पृथक् आसन् इदानीम् एकत्रीभूय संयुज्य तिष्ठन्ति, पिण्डीभाव एष क्रिया न वा इति खलु सन्देहः. प्रतिपक्षी इदानीं वदन्ति उपरि दत्तं पञ्चक्रियाणि केवलम् उदाहरणरीत्या दत्तम् अस्ति सन्ति, पिण्डीभावः अपि एका रीत्या प्रक्रिया अस्ति. तस्मिन् पूर्वं यदि कर्णाः पृथक् पृथक् सन्ति ते एकत्रीभूत्वा दृढैः संयुज्य तिष्ठन्ति, पिण्डीभाव इति एका क्रिया भवति. तस्य कोऽपि सन्देहः नास्ति तस्मिन्. तत् एव श्रोत्रां पृच्छति,
श्रोतरं वदति,
मातरं
प्रायः श्रोतारम् इति अस्ति दीर्घाकरं हा इति वदति. पिण्डीभावः क्रिया वा अथवा गुणः इत्येव भवतः सन्देहः खलु इति पृच्छति प्रतिपक्षी.
पृच्छति श्रोता पुनः वदति सत्यं पिण्डीभावः
अग्रे अग्रे अन्ये अन्ये केऽपि अस्तु सुनीला महोदय.
श्रोता सत्यं पिण्डीभावः इति कश्चन भावः खलु,
पिण्डीभावः इति कथनेन भावः इति अस्ति न तु क्रिया, भावः क्रिया अस्ति. इदानीं श्रोता तत्र सन्देहं तदेव इति अङ्गीकरोति. पिण्डीभावः कश्चन भावः एव खलु इति सः पुनः पृच्छति. पिण्डीभावः इति कथनेन भावः अस्ति, क्रिया नास्ति इति सः वदति. भावः क्रिया वा इति सः इदानीं पुनः पृच्छति.
यतोहि पूर्णपदं सम्पूर्णपदं दृष्ट्वा अन्ततो गत्वा पिण्डीभावः इति एव दृश्यते किल. भावः इत्युक्ते तादृशगुणः अस्ति वा इति, कथं तद् क्रिया भवेत् इति पृच्छति. अस्तु, अग्रे महोदय.
प्रतिपक्षी पिण्डीभावः इत्यनेन पिण्डीभवनम् इत्यर्थः. पिण्डीभवनम् इत्युक्ते पूर्वं पिण्डं न आसीत्, इदानीं पिण्डं सञ्जातम्. लङ्कगम् इति स्वीकुर्मः चेत् लड्डुकमिति स्वीकुर्मः चेत् पूर्वं तस्य कणाः पृथक् पृथक् आसन्, इदानीं लड्डुकस्य कणाः सर्वे मिलित्वा तिष्ठन्ति, सः एव पिण्डीभावः. एवं कृत्वा पिण्डीभवनम् एका क्रिया. इदानीं प्रतिपक्षी उत्तरं ददाति, पिण्डीभावः इत्यनेन पिण्डीभवनम् इति अर्थः, इत्युक्ते पूर्वं पिण्डं न आसीत्, इदानीं पिण्डम् अस्ति इति. उदाहरणम् अस्ति लड्डुकम् इति. पूर्वं लड्डुकस्य कणाः पृथक् पृथक् आसीत् आसन्, इदानीं लड्डुकस्य कणाः सर्वे एकस्मिन् स्तरे तिष्ठन्ति, तदेव पिण्डीभावः इति. एवं स्वीकृत्य पिण्डीभवनम् इति एका क्रिया इति.
हा, समीचीनं. तर्हि स्पष्टं स्यात्, पूर्वं यद् न आसीत् अधुना तत् सञ्जातं. तत् सञ्जातम् इति एव न, तादृशस्थितिः अस्ति तथा तिष्ठति इति कृत्वा एतदपि पिण्डीभवनमपि एका क्रिया इति प्रतिपक्षी वदति. अस्तु, तर्हि इतः अग्रे पिण्डीभवनम् इति शब्दस्य कश्चन विशेष अर्थः अस्ति. कः प्रत्ययः अन्तर्निहितः इति दृष्ट्वा तदाधारेण अपि पिण्डीभवनम् इत्यस्य कश्चन विशेषः अर्थः अस्ति. सः अर्थः कः इति अग्रे पश्येम.
राजेन्द्रमहोदय, भावः पिण्डीभावः इति अस्ति किल, तत्र भावः इति पदस्य सामान्यम् इत्यपि अवगन्तुं शक्यते वा? जाति घटे घटत्वम् अस्ति, पिण्डी पिण्डे पिण्डीभावम् अथवा पिण्डित्वम् अस्ति इति अवगन्तुं शक्यते वा इति?
प्रायः महोदय, सुन्दरस्य भावः सौन्दर्यः तथा इति.
आम् आम्, तादृशं पिण्डी पिण्डीभावः इत्येव लक्षणवाक्ये दत्तमासीत् किल. पिण्डम् इति न दत्तं, पिण्डीभावः इति दत्तम्. अतः सामान्यम् अपि तस्य अर्थः सामान्यमिति सामान्यं भवतुं भवितुम् अर्हति इति.
इत्युक्ते गुणः इत्युक्ते भवान् चिन्तयन्ति प्रायः चिन्तयन्ति अस्ति प्रायः यद् गुणः क्रिया सामान्यम् इति त्रिषु.
हा, तादृशम्. आम्, सप्तपदार्थानां मध्ये सामान्यमस्ति किल, पिण्डे पिण्डीभावम् अथवा पिण्डित्वम् अस्ति. ई पिण्डीभावस्य अवगमनम् एकं सामान्यम् इत्यपि अवगन्तुं शक्यते वा इति मम प्रश्नः.
प्रायः ई पत्रं लिखामः महोदयं प्रति. अस्तु, इति प्रायः चिन्तयितुं
शक्यते. हा, पिण्डीभावः विलक्षणसंयोगः गुणीभूतः इति अवगतवन्तः. इदानीं क्रिया इत्यपि चर्चा प्रचलन् अस्ति, प्रायः सामान्यम् इत्यपि अवगन्तुं शक्नुमः किल इति चिन्तयामि.
अस्तु, पश्येम.
अस्तु अस्तु अस्तु
भावः इत्युक्ते इदानीं सुन्दरस्य भावः सौन्दर्यम् इति वदामश्चेत् तर्हि
सुन्दरं
सर्वेषु सुन्दरपुरुषेषु अथवा महिलासु तथा सुन्दरत्वम् अस्ति इति
आम् तादृशं तद् यदा सर्वेषु घटेषु घटत्वम् अस्ति तदा सर्वेषु पिण्डेषु पिण्डित्वम् अस्ति अथवा पिण्डीभावः अस्ति.
अस्तु अस्तु अवगच्छामि. अस्तु पृच्छामि.
तादृशं
भगिनि यदा वदामः घटत्वं घटत्वं तु धर्मः अस्ति परन्तु सौन्दर्यं तु धर्मः अस्ति वा सौन्दर्यं?
अत्र का विवक्षा इति चेत् धर्मः इति स्वभावः तत् सत्यं किन्तु सप्तपदार्थेषु अन्यतमः अस्ति सामान्यम् इति एकः पदार्थः खलु.
आम् आम्.
हा तर्हि समानानां धर्मः सामान्यम् इति आगच्छेत् सर्वेषु घटेषु एकः धर्मः अस्ति घटत्वं तद् घटत्वम् इति सामान्यं तद्वद् सर्वेषु पिण्डेषु पिण्डीभावः अथवा पिण्डित्वम् इति पिण्डत्वम् इति सामान्यम् अस्ति वा इति प्रश्नः तादृशप्रश्नः अस्ति.
अस्तु भगिनि पठामि वा?
हा हा पठतु.
श्रोता अहो अत्र च्वि प्रत्ययः इति वा श्रोता प्रश्नः करोति यथा भवान् वदति प्रतिपक्षं वदति यदा भवान् पिण्डीभवनम् एका क्रिया वदति तत्र अत्र च्वि प्रत्ययः प्रयोगं प्रयुक्तं वा तत् प्रश्नः अस्ति. प्रतिपक्षी सत्यं च्वि प्रत्ययः यत्र भवति तत्र सर्वत्र काचित् क्रिया अनेन व्यक्तीकृता. का क्रिया इति चेत् पूर्वं तथा न आसीत् इदानीं तथा सम्पद्यते इति सा काचित् क्रिया भवति एव तां पिण्डीभावक्रियाञ्च द्रष्टुं शक्नुमः किन्तु तस्य कारणीभूतः गुणः यः जले अस्ति सः तु न दृश्यते पिण्डीभवनं चूर्णस्य न तु जलस्य. पिण्डीभवनस्य कारणीभूतगुणः जले. चूर्णजलयोः मिश्रणं यदा कुर्मः इदं क्रिया पिण्डीभावस्य चूर्णस्य पिण्डीभवनक्रियां ज्ञातुं शक्नुमः द्रष्टुं शक्नुमः किन्तु तस्य अनुकूल यः गुणः भवति जले तं गुणं वयं कथं द्रष्टुं शक्नुमः इति प्रश्नः अस्ति एव. न्यायशास्त्रे स्नेहः प्रत्यक्षम् इति वदन्ति किन्तु लोके तादृशः अनुभवः अस्माकं नास्ति. इदानीं प्रतिपक्षी वदति सत्यं यथा भवान् श्रोतुं वदति यथा भवान् वदति अत्र च्वि प्रत्ययः अस्ति वा तत् सत्यं च्वि प्रत्ययः यत्र भवति तत्र सर्वत्र काचित् क्रिया अनेन व्यक्तीकृतः. तत्र यत्र कुत्रापि च्वि प्रत्ययः प्रयुक्तं भवति तत्र अन्यः कोऽपि क्रिया अनेन कोऽपि कश्चनेन जनैः न तत् क्रिया व्यक्तीकृताः कृता व्यक्तीकृता. का क्रिया इति चेत् क्रिया इत्युक्ते यथा पूर्वं यत् न आसीत् इदानीं तत् सम्पद्यते तथा यथा पूर्वं पिष्टः अस्ति तत् इदानीं जलमिश्रणं कृत्वा तत् पिण्डीभवनं भवति तत्र सम्पद्यते तत् पूर्वं पिण्डी भवनं न आसीत् इदानीं तु पिण्डीभवनं भवति तत् सम्पद्यते सा एव क्रिया सा काचित् क्रिया भवति एव तां पिण्डीभावक्रियाञ्च द्रष्टुं शक्नुमः यथा पिण्डीभवनं भवति तत्र जलं मिश्रित्वा तत्र पिण्डीभवनं ततः वयं द्रष्टुं शक्नुमः किन्तु तस्य कारणीभूतः गुणः या जले अस्ति जलमिश्रित्वा तत् यः गुणः जले आसीत् यत् कारणात् तत् पिण्डीभवनं अभवत् सः गुणः न दृश्यते पिण्डीभवनं चूर्णस्य न तु जलस्य. पिण्डीभवनं यथा भवति तत् चूर्णस्य पिण्डीभवनं भवति न तु जलस्य, परन्तु भगिनी तत् चिन्तयामि तत् सत्यं न आसीत्, जलः तत्र न आसीत् पिण्डीभावना न भवेत्, जलस्य चूर्णस्य अस्ति परन्तु जलः अस्ति तत् कारणात् एव
पिण्डीभावना, तत् समीचीनमेव, किन्तु पिण्डीभावः इति गुणः कुत्र अस्ति, चूर्णे अस्ति वा अथवा जले अस्ति वा?
पिण्डीभावः तु जल मिश्रित्वा तत्र चूर्णे,
एवम् एवं वदतु, जले कः गुणः अस्ति, स्नेहः अस्ति
खलु, स्नेहः अस्ति, जले स्नेहः अस्ति,
पिण्डीभावः कुत्र अस्ति, जलसंयोगेन पिण्डीभावः कुत्र आगच्छति,
चूर्णे,
चूर्णे, हा अवगच्छति वा अधुना?
स्वयं न आगच्छति, जलमिश्रणं कृत्वा,
इति सत्यमेव, किन्तु जलमिश्रणं कृत्वा अपि पिण्डीभावः इति कश्चन गुणः अथवा काचित् क्रिया कुत्र वर्तते, तस्य अधिकरणं किम् इति प्रश्ने कृते अधिकरणमस्ति चूर्णं,
पिण्डीभावनस्य कारणीभूतगुणः जले अस्ति, तत्तु सत्यम्, यथा पिण्डीभावना भवति तत् कारणीभूतगुणः यत् जले अस्ति तत् कारणात् एव पिण्डीभावना भवति, चूर्णजलयोः मिश्रणं यदा कुर्मः इयं क्रिया पिण्डीभावस्य, यदा तत् मिश्रणं कुर्मः तत् सा क्रिया पिण्डीभावस्य क्रिया अस्ति, चूर्णस्य
इत्युक्ते पिण्डीभावः इति क्रिया इति वा भवतु गुणः इति वा भवतु यत्र कुत्र यत्किमपि भवतु पिण्डीभावः, किन्तु कुत्र अस्ति अन्ततो गत्वा
पिण्ड्याम् अस्ति तत्
चूर्णे, चूर्णे अस्ति,
चूर्णे, आम् यः पूर्णं चूर्णः आसीत् तत् अस्ति, आम् तत् चूर्णस्य पिण्डीभवनक्रियां ज्ञातुं शक्नुमः, द्रष्टुं शक्नुमः, यथा चूर्णस्य पिण्डीभवनं भवति जलमिश्रेण तथा द्रष्टुं शक्नुमः, ज्ञातुं शक्नुमः अत्र इदानीं पिण्डीभवनम् अभवत्, किन्तु तस्य अनुकूलः यः गुणः भवति जले, यः गुणः जले आसीत् यत् कारणात् तत् पिण्डीभवनं भवति सः गुणः वयं न द्रष्टुं शक्नुमः इति प्रश्नः अस्ति एव,
सः गुणः कः,
स्नेहः, सः गुणः स्नेहः कथं द्रष्टुं शक्नुमः, जले अस्ति कीदृशः अस्ति तत् न द्रष्टुं शक्नुमः, न्यायशास्त्रे स्नेहः प्रत्यक्षम् इति वदन्ति, यथा पूर्वं वयं पठितवन्तः तत् न्यायशास्त्रे तु स्नेहः प्रत्यक्षं वदन्ति, द्विन्द्रियग्राह्या अस्ति, परन्तु किन्तु लोके तादृशम् अनुभवः अस्माकं नास्ति, लोके तादृश अनुभवः अस्माकं नास्ति, तत् साक्षात् न द्रष्टुं शक्नुमः, यत्र जले कोऽपि गुणः अस्ति, यः स्नेहः अस्ति तत् कारणात् तत् पिण्डीभावनं भवति, तत् गुणं वयं न द्रष्टुं शक्नुमः, कथं वक्तुं शक्नुमः कः गुणः जले अस्ति, यः स्नेहः अस्ति, तथा लोके तादृशी अनुभवः नास्ति अस्माकं,
हा समीचीनम् इति वस्तुतः प्रतिपक्षिणः मतमस्ति खलु, आरम्भतः एतदेव मतमस्ति प्रतिपक्षिणः, किन्तु ततः अग्रे अपि किञ्चित् गत्वा पिण्डीभावः क्रिया वा गुणः वा इति अपि चर्चा अधुना जायमाना अस्ति, अस्तु अग्रे सरेम, वर्धिनी भगिनी प्रश्नः, एकनिमिषः प्रश्नः वा,
आम् तत्र प्रथमपङ्क्त्यां का क्रिया इति चेत् पूर्वं तथा नासीत् इदानीं तथा सम्पद्यते इति तत्र मया तत् मया न अवगतम्,
इत्युक्ते
क्रियया किं प्रायः नूतनद्रव्यं वा नूतनगुणः वा जायते किल,
अधुना का क्रिया इति चेत् एषा अस्तु सम्पन्नम् इत्युक्ते यद् न आसीत् तद् अभवत् किमपि तद् अभवत् इत्येव क्रिया, सम्पन्नम् इत्युक्ते अभवत् भूधातु इति चिन्तयतु, या स्थितिः पूर्वं न आसीत् सा स्थितिः अधुना अभवत् अथवा सा स्थितिः अधुना सम्पन्ना, सा एव क्रिया.
हा तत्रैव प्रश्नः, सा क्रिया इति कथं वक्तुं शक्यते? तत् क्रियया अभवत्.
अस्तु, तर्हि क्रियया अभवत् इति चिन्तयति चेत् सा क्रिया का? कया क्रियया अभवत्?
अस्मिन् उदाहरणे अहं पेषणं करोमि, जलं चूर्णम् अपि च जलं मिश्रणं कृत्वा, पेषणम् इति क्रिया अस्ति किल.
तया क्रियया, त्रया क्रियया एका स्थितिः सम्पन्ना खलु इति भवान् वदति. हा, किन्तु एतेषां वैयाकरणदृष्ट्या पिण्डीभवनम् इति वदामश्चेत्, अस्तु पिण्डीभवनं पेषणक्रियया वा अथवा हस्तं तत्र स्थापयित्वा किमपि करोति, तया क्रियया पिण्डीभवनं जातम् इति सत्यमेव. किन्तु पिण्डीभवनं स्वयम् एका क्रिया, इत्युक्ते एका स्टेट् अस्ति, तद् न आसीत् पूर्वम्, अधुना अस्ति. अस् धातु, अस् धातुं मनसि स्थापयित्वा किञ्चित् चिन्तयतु. पिण्डीभवनम् अथवा भूधातुं मनसि स्थापयित्वा चिन्तयतु, तदपि एक क्रियापदमेव खलु, भवति अस्ति तद् पिण्डी भवति, तादृशक्रिया अस्ति अधुना पिण्डी भवति इति.
अस्तु भगिनि.
भगिनी यथा पठनं करोति, पठनम् एक पठनक्रिया अभवत्, तत् कारणात् तत् किमपि पठितवान् कोऽपि क्रिया अभवत् तत्र पठनं करोति.
हा, करोति इति क्रिया तत्र तु साक्षात् दृश्यते, किन्तु अत्र पिण्डीभवनम् इति क्रिया इति कथं वक्तुं शक्यते अथवा पिण्डीभावः इति, तदर्थम् अहम् उक्तवती किञ्चित् दातुम् अपि, धातुः क्रियामेव सूचयति खलु. अत्रापि सम्पद्यते, सम्पन्नम् इत्युक्ते पद् इति धातुः, तर्हि तया दृष्ट्या यद् पिण्डं न आसीत् तत् पिण्डम् अभवत् इति चिन्तयामश्चेत् पिण्डीभवनमपि एका क्रिया भवति इत्येव आशयः अत्र च्वी प्रत्ययस्य योजनेन, तादृश आशयः.
अस्तु भगिनि.
अस्तु अस्तु, अग्रे वर्धिनी भगिनि.
आं भगिनि, त्रिविधायकसूत्रमस्ति, कृभ्वस्ति कृभ्वस्ति योगे सम्पद्यकर्तरि च्विः अभूत् तद्भावः इत्यस्मात् वार्तिकात् अस्य आशयः गम्यते, नाम यत् नासीत् तत् जातम्, अशुक्लं शुक्लं कृत्वा शुक्लीकृत्य इति क्षिप्रत्ययस्य सिद्धं रूपम्. विग्रहवाक्यं तु अशुक्लं शुक्लं कृत्वा इति, यत् शुक्लं नासीत् तत् शुक्लं कृतम् इति, अथवा शुक्लं वस्त्रम् अस्ति तत् अहं कृष्णवर्णं रञ्जयामि, तर्हि अहं शुक्लवस्त्रं कृष्णीकरोमि, तेन वस्त्रं कृष्णं जातम्. क्षिप्रत्ययेन सह कृधातुः, भूधातुः, अस्थातुः च भवन्ति. क्षिप्विधायकसूत्रं कृभू अस्ति योगे सम्पद्यकर्तरि च्विः इति सूत्रमस्ति, अभूत तद्भावः.
अत्र किञ्चित् वदामि सूत्रस्य विषये. कृ धातुः, भू धातुः, अपि च तेषां योगे च्वी प्रत्ययः विहितः भवति. कदा? सम्पद्यकर्तरि. कर्तरि प्रयोगे अधुना. अस्तु, अग्रे पठतु भगिनि, वदामि.
अभूत् तद्भावः इत्यस्मात् वार्तिकात् अस्य आशयः गम्यते, अभूत् तद्भावः इति वार्तिकात् अस्य आशयः गम्यते. यत् नासीत् तद् जातं, पूर्वं न आसीत् अधुना तत् प्रत्यक्षः भवति, जातम्. शुक्लं शुक्लं कृत्वा शुक्लीकृत्य इति चुप्रत्ययस्य सिद्धं रूपम्. अशुक्लं पूर्वम् अशुक्लम् अस्ति अधुना शुक्लं शुक्लकृतेन शुक्लीकृत्य इति
इत्युक्ते अभूत तद्भावः इति भवती पठितवती खलु अभूतं किं शुक्लं शुक्लम् अभूत हा अभूतम् आसीत् यतो हि पूर्वम्
अभूतं पूर्वम्
अधुना तद्भावः यद् अभूतम् आसीत् तद्भावः इत्युक्ते शुक्लम् अभवत् अधुना तादृशभावः अभवत् अशुक्लं शुक्लं कृत्वा शुक्लीकृत्य
इति क्षुप्रत्ययस्य सिद्धं रूपं विग्रहवाक्यं तु अशुक्लं शुक्लं कृत्वा इति यत् शुक्लं न आसीत् तत् शुक्लं कृतम् इति अथवा शुक्लं वस्त्रम् अस्ति तत् अहं कृष्णवर्णं रञ्जयामि तर्हि अहं शुक्लवस्त्रं कृष्णीकरोमि तेन वस्त्रं कृष्णं जातं क्षिप्रत्ययेन सह कृ धातुः भूधातुः अस्धातुः च भवन्ति
अन्यानि उदाहरणानि तावदेव वदतु
क्रूधातुः कृष्णीकरोति कृष्णीकरिष्यति
कृष्ण एतावत्पर्यन्तं यद् भवती पठितवती तस्य विषये
क्षिप्रत्ययः वदति अत्र अभूत् अत्र क्रूधातुः भूधातुः अस्धातुः भवन्ति
हा इत्युक्ते भवती यत् पठितवती शुक्लम् अशुक्लम् आसीत् शुक्लं कृत्वा इति शुक्लीकृत्य तद्वद् एकं शुक्लं वस्त्रम् आसीत् शुक्लम् आसीत् तद् अधुना कृष्णम् अस्ति केनचित् हा केनचित् कृष्णीकृतम् इति कृत्वा शुक्लवस्त्रं कृष्णीकरोमि इति आगच्छति कृष्णं न आसीत् पूर्वम् अभूतम् किन्तु अधुना तस्यैव भावः तद्भावः आगतम् अतः कृष्णीकरोमि
कृष्णवर्णमस्ति कृष्णीकरोमि कृष्णीकरोति
हा इति अस्ति अपि च श्वी प्रत्ययेन सह सर्वदा कृ धातुः भूधातुः अथवा अस् धातुः इति भवन्ति इति उच्यते अस्तु व्याकरणस्य विषयः चिन्ता मास्तु किन्तु एवं मनसि भवेत् यद् अत्र पिण्डीभवनम् इति क्रिया अपि अस्ति इति साधयितुम् इच्छन्ति व्याकरणदृष्ट्या अस्तु अग्रे हा अजितमहोदय पठेत् अग्रे अजित् महोदय अस्ति वा
आं भगिनि आं भगिनि तत्र द्वि प्रत्ययस्य रूपाणि एवं अस्तु कृ धातुः कृष्णीकरोति कृष्णीकरिष्यति कृष्णीकृतं कृष्णीकृत्य इत्यादीनि रूपाणि भूधातुः कृष्णीभवति कृष्णीभविष्यति कृष्णीभूतं कृष्णीभूय इत्यादीनि रूपाणि यथा वयं दृष्टवन्तः तत्र कृभु अस्ति योगे सम्बध्यकर्तरि च्वि इति सूत्रेण तत्र कृ भू अस् धातोः सम्बध्यकर्तरी समये च्वि प्रत्ययः चेत् तत्र कृष्णीकरोति तत्र रूपं भविष्यति
सम्पद्यकर्तरि विषये करपत्रे एव अन्ते किञ्चित् अस्ति अनन्तरं पठन्तु तदा स्पष्टं भवति सर्वम् अस्तु महोदय
अस्तु तत्र कृधातूनां रूपम् अस्ति रूपाणि अस्ति कृष्णीकरोति कृष्णीकरिष्यति इति भूधातूनां रूपाणि अस्ति कृष्णीभवति कृष्णीभविष्यति कृष्णीभूय इत्यादीनि अधुना क्षी प्रत्ययस्य रूपाणि एवम् अकारान्तम् आकारान्तं वा इति चेत् ईकारः भवति, यथा शुक्लं करोति शुक्लीकरोति। ईकारान्तम् उकारान्तं वा इति चेत् ईकारः ऊकारः च भवति। उदाहरणार्थं शुचिं करोति शुचीकरोति, लघुः भवति लघु भवति इति। ऋकारान्तम् इति चेत् ऋकारः भवति, नेता भवति नेत्री भवति। तत्र च्वि प्रत्ययस्य रूपस्य परिवर्तनं कथं जायते इति तत्र वदति। आकारान्तं चेत् तत्र ईकारः भवति, यथा शुक्लं करोति शुक्लीकरोति इति। इकारान्त उकारान्तं चेत् ईकारः ऊकारः च भवति। उदाहरणं शुचिं करोति तत्र इकारः, तत्र शुचीकरोति इति। लघुः भवति तत्र उकारः, लघुः भवति। ऋकारान्तम् इति चेत् ऋकारः भवति, नेता भवति तत्र। नेता इति नेतृ ऋकारान्तपदं, तत्र नेत्री भवति।
बहु समीचीनं महोदय, इत्येव अस्ति नेत्र।
अस्तु
अस्तु, समीचीनं। तर्हि अत्र कोऽपि भ्रमः न स्यात्, केवलम् उदाहरणानि दत्तानि। अस्तु, अग्रे शुकवन महोदय।
अस् धातोः रूपाणि विरलतया दृश्यन्ते, शास्त्रीयम् उदाहरणम् एवं दीयते। अगङ्गा गङ्गा गङ्गी स्यात् इति नाम अगङ्गा गङ्गा भवेत्, अगङ्गा गङ्गा सम्पद्यमाना अस्ति इति विग्रहवाक्यम्। लौकिकम् उदाहरणं तु अबालकः बालकः अस्ति, बालक्यस्ति। चिन्तयतु, काचित् बालिका अस्ति, सा बालिका नाटकप्रसङ्गे बालकः भूत्वा नाटकं कुर्वती अस्ति, तर्हि सा बालक्यस्ति। इष्यते चेत् च्वी प्रत्ययस्य प्रसङ्गे इतोपि दत्तम् अस्ति अस्य पाठस्य अन्ते। इदानीं तिण्डी कथं तत् क्रिया, तिण्डीभावः क्रिया इति चर्चां प्रवर्तमानः अस्ति। तत्र अस् धातोः रूपाणि विरलतया दृश्यन्ते, विरलतया इत्युक्ते न्यूनातिन्यूनमेव किल भगिनि,
सामान्यतया न दृश्यन्ते इति।
सामान्यतया न दृश्यन्ते, शास्त्रीयम् उदाहरणम् एवं। तत्र पूर्वस्मिन् परिच्छेदे भूधातोः अपि च कृधातोः उदाहरणं दत्तमासीत्, किन्तु इदानीम् अस् धातोः विषये कीदृशमस्ति इति तत्रैव महोदयेन दत्तमस्ति, विरलतया एव दृश्यन्ते, इत्युक्ते न्यूनम् एव दृश्यन्ते। शास्त्रीयम् उदाहरणं, शास्त्रे एतादृशम् उदाहरणं ते दीयन्ते। अगङ्गा गङ्गा गङ्गी स्यात् इति, यत् गङ्गा न आसीत् इदानीं गङ्गा अभवत्, तत्र गङ्गी स्यात् इति च्वी प्रत्ययम् उपयुज्य तादृश, अपि च स्यात् इति अस् धातोः रूपमेव, गङ्गी स्यात् इति वक्तुं शक्यते। नाम अगङ्गा गङ्गा भवेत्, अगङ्गा गङ्गा सम्पद्यमाना अस्ति इति विग्रहवाक्यं। सम्पद्यमाना तत् शानच् अस्ति किल भगिनि?
आम्, समीचीनं, शानजन्तरूपं, सत्यं महोदय। सम्पद्यते,
हा, सम्पद्यमाना इत्युक्ते इदानीमव, इदानीमपि तत्
कण्टिन्यूटि, हा हा, सत्यम्। इत्यस्मिन् अर्थे एव शत्रु अपि च शानच् इत्यस्मिन् अर्थे एव बालकः गच्छन् अस्ति इति, अथवा वर्धमानः बालकः अस्ति, बालकः वर्धमानः अस्ति इति समानकालिकक्रियाद्वयं सूचयति, शत्रु अपि च शानच् इत्येव।
आम् आम्, सम्पद्यमाना अस्ति, लौकिकम् उदाहरणम् अबालकः बालकः अस्ति, यः बालकः नास्ति सः इदानीं बालकः अभवत्, तत् कथं तत् तत्र अबालकः बालकः अस्ति इति विवक्षा आसीत् चेत् बालक्यस्ति इति अपि च्वि प्रत्ययः उपयोगं कृत्वा वक्तुं शक्यते. तत् कथम् इत्युक्ते एका बालिका आसीत् सा नाटके भागं स्वीकरोति. कीदृशभागम् इत्युक्ते बालकस्य भागं स्वीकरोति चेत् तस्मिन् सन्दर्भे सा बालकः बालकः अभवत् तस्मिन् सन्दर्भे नाटके, हा नाटके सा बालकः अभवत् इति कृत्वा सा बालक्यस्ति इति च्वि प्रत्ययम् उपयुज्य तस्याः स्थितिः इदानीं का इति वक्तुं शक्यते.
या बालिका आसीत् पूर्वम् इत्युक्ते बालकः न अस्ति, सा बालकः अस्ति अधुना. किन्तु अत्र अकारान्तस्य इ इति यथा शुक्लीकरोति तथा नास्ति, शुक्ली भवति तथा नास्ति खलु, बालकी अस्ति इति किञ्चित् भेदः अस्ति इत्युक्ते हा बालकी योगः अस्ति प्रायः तथा यण् सन्धिः स्यात्
बालकी अस्ति,
हा बालकी अस्ति इति
बालकी अस्ति इति सन्धिं कृत्वा
इकारः भूत्वा क्षम्यताम् ईकारः भूत्वा
ईकारः भूत्वा
इति स्यात्. अस्तु वाक्य अग्रे वाक्यद्वयमपि पठित्वा
श्रोता अधुना विद्याधिर्याम् उक्तं यत् पिण्डीभावः विलक्षणसंयोगः नाम गुणः, किन्तु भवता उच्यते यत् पिण्डीभावः क्रिया इति पुनः श्रोता वदति. इदानीं कथं तत् क्रिया इति पूर्वपक्षिणा प्रतिपादितं, पुनः श्रोता पृच्छति विद्याधिर्यां पिण्डीभावः इति विलक्षणसंयोगः नाम गुणः इत्येव दत्तमस्ति, भवान् कथं तत् क्रिया इति वदति इति. पूर्वप्रतिपक्षी वदति अस्तु संयोगः गुणः इति रीत्या चिन्तनं भवतु, पिण्डीभावरूपं गुणं द्रष्टुं शक्नुमः, तस्य कारणीभूतं गुणं स्नेहं द्रष्टुं न शक्नुमः इति तथा वक्तुं शक्यते. इदानीं प्रतिपक्षी वदति तत् पिण्डीभावः इति गुणः वा भवतु क्रिया वा भवतु, यद्यपि गुणः वा भवतु क्रिया वा भवतु तत् यत्किमपि भवतु तद् द्रष्टुं शक्यते, किन्तु स्नेहम् इति स्नेहः इति गुणः जले वर्तते इति सिद्धान्तिना उक्तं, तत् स्नेहः जले न द्रष्टुं शक्यते इति पुनः प्रतिपक्षी पूर्वं यत् चर्चाम् आसीत् तद् तां प्रति आगच्छति.
हा समीचीनम् इति अस्ति. अस्तु अग्रे सरला भगिनी अग्रे भवती पठतु, प्रतिपादयतु, अनन्तरं पुनः सुनील महोदय भवान् अपि शृणोतु, तदनन्तरं भवान् अपि
भगिनी तत् पूर्वम् एकः प्रश्नः तत्र महोदयेन सोपानेन दत्तं, किन्तु तत्र एकः वाक्यः अस्ति पिण्डीभावः इत्यनेन पिण्डीभवनम् इत्यर्थः इति दत्तमस्ति किल.
सत्यं
तत्र भावः कथं भवनम् इति स्वीकर्तुं शक्यते इति महोदयेन न दत्तं. भवनम् इति वदामश्चेत् तत्तु क्रिया एव ल्युट् प्रत्ययम् उपयुज्य गमनं पठनं करोति.
एकनिमिष, भाववाचकप्रत्ययाः बहवः सन्ति, भावः इत्यत्र घञ् प्रत्ययः, तद्वद् ल्युड् अपि भाववाचकः इति भाति, गमनक्रियायाः गमनम् इति कश्चन भावः भवेत् इति कृत्वा.
हा निश्चयेन ल्युट् प्रत्ययः निश्चयेन भाववाचकप्रत्ययः एव, किन्तु भा ओहोहो ओ तादृशम् अवगतं भगिनि
खलु इति अस्ति परन्तु अग्रे अग्रे गत्वा इतोपि किञ्चित् वदामः यत्किमपि भवतु व्याकरणदृष्ट्या सर्वं क्रिया एव इति अग्रिमपरिच्छेदः धातुः इत्युक्ते व्यापारसूचकः हा इति पश्येम अस्तु सरला भगिनी अग्रे
श्रोता परन्तु भवता उक्तं यत् पिण्डीभावक्रिया श्रोता प्रतिपक्षीं पृच्छति पिण्डीभावत् भवान् वदति क्रिया अस्ति इदानीं प्रतिपक्षी वदति सत्यमेव व्याकरणदृष्ट्या तु क्रिया एव नैयायकानां चिन्तनं भिन्नं वैयाकरणानां चिन्तनं भिन्नम् अन्यत् उदाहरणम् अवलोकयामः इच्छा अस्ति कश्चन गुणः इति नैयायकानां विचारः इच्छा च ज्ञानं च गुणेषु अन्तर्भावः इच्छा इच्छति च जानाति च गुणबोध्यतः न तु क्रियाम् इति तेषां कथनं किन्तु वैयाकरणानां विचारः तु इच्छा क्रिया न तु गुणः इच्छति इत्यनेन इच्छा कर्ता इच्छायाः आश्रयः इष् धातोः इच्छा अर्थः तिङ् प्रत्ययेन कर्ता अतः वैयाकरणाः वदन्ति यत् इच्छा स्वयं क्रिया न तु गुणः धातुः व्यापारं क्रियां बोध्यति यथा पाकः पच् धातुः तण्डुल अवयवशैथल्यानुकूलव्यापारं बोधयति तस्मात् भावे प्रत्ययः घञ् तण्डुलशैथल्यानुकूलव्यापारः इत्येव अर्थम् अनुवदन् घञ् प्रत्ययस्य संयोजनेन पच् योग घञ् पाकः तद्वत् इच्छा इत्यपि इष् धातूनां क्रिया बोध्यते तत् उत्तरवर्ती अङ् प्रत्ययः भावं बोध्यति इत्युक्ते अयं प्रत्ययः धात्वर्थमेव बोधयति धात्वर्थश्च व्यापारः अतः इच्छा इत्युक्ते व्यापारः एव इच्छनम् इच्छा यत्रपि अत्रापि कश्चन इच्छानुकूलव्यापारः आत्मनसंयोगानुकूलव्यापारः भवति बालकः घट्टम् इच्छति इति वाक्ये इच्छति इति कश्चित् व्यापारः इच्छति क्रियापदम् अस्ति किल इच्छति इति पदं क्रियां बोधयति वा गुणं बोधयति वा इति प्रश्ने सति व्याकरणदृष्ट्यां क्रियां बोधयति प्रतिपक्षी अनुवदति य पिण्डीभावत् क्रिया इति सत्यमस्ति व्याकरणदृष्ट्या क्रिया नैयायिकानां चिन्तनं भिन्न व्याकरणां चिन्तनं भिन्न नैयायिका अपि वैयाकरणात् द्वयोः चिन्तनं भिन्नम् अस्ति नैयायिका वदति एतत् गुणः अस्ति वैयाकरण वदति एतत् क्रिया अस्ति अन्यत् उदाहरणं तस्य पिण्डीभाव स्पष्टीकरणार्थम् इच्छा व ज्ञानस्य उदाहरणम् इदानीं दत्तमस्ति इच्छा अस्ति कश्चन गुणः इति नैयायिकना मतमस्ति इच्छा एतत् गुणः अस्ति इच्छा च ज्ञानं च गुणेषु अन्तर्भावः गुणेषु इच्छा वा ज्ञानम् इति तस्य भावं प्रदर्शयति इच्छा या ज्ञानम् इति द्वे शब्दे
गुणः इति नैयायिकाः
नैयायिकाया इच्छति या जानाति च गुणबोधयत च क्रियाम् इति तेषां कथनं यदि वयं इच्छति वा जानाति द्वे क्रिया पदे यदि वयं स्वीकुर्मः एतत् ते केवलं गुणप्रति बोधयति नैयायकानां विचारे किन्तु वैयाकरणां तेषां विचारः अस्ति क्रिया अस्ति कथमस्ति यत् इति अथो वयं पठामः वैयाकरणविचार इच्छा च क्रिया न तु गुण कथम् इच्छति इत्यनेन इच्छा कर्ता इच्छया यदि वयम् इच्छति वदामः तिङ् प्रत्ययोजनेन इष् धातो अस्ति तस्य तिङ् प्रत्ययोजनेन कर्तृ प्रति सङ्केतं करोति इच्छति इत्युक्ते कर्ता इच्छति कर्ता को सह सा के अपि कोऽपि इच्छति कथं कर्तृप्रद कर्तृ कर्तृ कर्ता प्रति अङ्गीकरोति तस्य वैयाकरणविच मतमस्ति एतत् क्रिया भवति का क्रिया भवति प्रक्रिया अस्ति यथा इच्छति कः इच्छति
कः कः इच्छति इत्युक्ते कर्तारं बोधयति अस्तु तिङ् प्रत्ययः कर्तृर्थे आगच्छति चेत् कर्तारं बोधयति इति सत्यं परन्तु इच्छति इति कर्तारं बोधयित्वा कर्तरि इच्छा
कर्तरे अस्ति
कर्तरि इच्छा या इच्छा सा इच्छा क्रिया एव इति वैयाकरणः सः इच्छति इति वदामश्चेत् सः कर्ता तिङ् प्रत्ययेन कर्तृ कर्ता बोधितः अस्ति इति सत्यं कर्तृस्ते परन्तु कर्तरि का क्रिया अस्ति इति प्रश्नः खलु सः इच्छति कर्तरि का क्रिया अस्ति इच्छा इति एव क्रिया
इच्छा इति क्रिया
हा इति वैयाकरणः
सो कर्ता भवति अधिकरण इच्छायाः
सत्यं समीचीनम् इति एव अस्ति इच्छायाः आश्रयः
तस्मिन् इच्छा अस्ति नैयाकरणस्य विचारम् अस्ति तस्मिन् इच्छायाः अधिकरणं कर्ता भवति अतः इच्छा भवति गुण किन्तु वैयाकरण विचारम् अस्ति एतत् एका प्रक्रिया भवति यत् आत्ममनसंयोगव्यापारः अस्ति
अस्तु अस्तु क्रमेण गच्छामः धातुः व्यापारम् इति
अस्तु तिङ् प्रत्ययोजनेन यथा वयं इच्छावान् भवति सः इच्छावान् भवति नैयाकरणविचारः अस्ति तत् अतः एतत् गुणं भवति अतः वैयाकरणा वदन्ति यत् इच्छा स्वयं क्रिया न तु गुण कथं क्रिया भवति तस्य धातुः व्यापारं क्रियां बोधयति एकमाध्यम अस्ति धातु यदि इष् धातु अस्ति तस्य अर्थम् अर्थः अस्ति इच्छा धातु स्वमेव क्रिया बोधयति यथा पाकः यदि पाकः वयं वदामः अच् धातु तस्य अर्थम् अस्ति तण्डुलावयव शैथल्य अनुकूलव्यापारं बोधयति यदि पच् धातु अर्थम् अस्ति तण्डुल पूर्वस्थितिः अस्ति बहु दृढम् अस्ति पचति यदि तण्डुलशैथल्यं भवति भोजनम् अनुकूलं भवति एता एका क्रिया भवति
समीचीनं भगिनि भवत्या यदुक्तं तद् बहु सम्यक् अस्ति तण्डुलं पूर्वं शिथिलं न आसीत् परन्तु एकेन व्यापारेण तण्डुलस्य शैथिल्यं जातं खलु अतः तण्डुलशैथिल्यानुकूलव्यापारः पच् धातुः अनया दृष्ट्या क्रिया अस्ति व्यापारम् इत्युक्ते क्रिया मनसि भवेत् एकं करपत्रमपि पठितवन्तः खलु अधोदेशसंयोगजनकव्यापारः क्रिया स्मरन्ति वा क्रिया इत्युक्ते व्यापारः
तस्मात् भावे प्रत्ययः घञ् यदि घञ् प्रत्यय वयं योजयामः धातुना सह, तस्य भावं प्रदर्शयति, यथा तण्डुलशैथल्यानुकूलव्यापार इति इत्येव घञ् प्रत्यय पाक तण्डुलशैथल्यानुकूलव्यापार इत्येव अर्थम् अनुवदनं घञ् प्रत्ययस्य संयोजनेन पच् योग घञ् इति योग पाकः. इदानीं पाकस्य अर्थः समानः भवति यदा पच् धातो अर्थः अस्ति, तत् अस्ति तण्डुल शिथिलं भवति इति एक व्यापारः भूत्वा तण्डुलशिथिलं भवति. पाकस्य अर्थः भावप्रत्यये अस्ति, पच् धातोः अर्थम् अस्ति यथा तण्डुलशैथिलं भवति. सो द्वयोः अर्थः एकसमानः अस्ति, यदि भाव अस्ति वा केवलं धातु वदामः तस्य द्वयोः अर्थम् एकसमानं भवति. तद्वत् इच्छा इत्यपि इष् धातूनां क्रिया बोधते. तद्वत् यथा पच् पाक तयो द्वयो पाक अस्ति भावे अर्थे, पच् अस्ति धातु अर्थे, द्वयोः अर्थ एकसमान भवति इति क्रिया बोधयति. तद्वत् इच्छा अपि भाव अर्थम् अस्ति, इष् अस्ति धातु तस्य अर्थम् अस्ति इच्छा. इष् धातुना अङ् प्रत्ययः अपि भावं बोधयति. इत्युक्ते अयं प्रत्ययः धातु अर्थमेव बोधयति, धातु अर्थस्य व्यापारः. धातु अर्थम् इत्युक्ते व्यापारः. सो क्रिया धातु क्रिया अङ्गीकरोति, तत् तस्य अर्थं व्यापारः अस्ति. अतः धातुः वा भावप्रत्यययोजनेन व्यापारं बोधयति. अतः इच्छा इत्युक्ते व्यापार एव, इच्छनम् इच्छा. इच्छनम् अत्र ल्युट् प्रत्यय योजित्वा अस्ति, तर्हि तत् अपि इच्छा बोधयति. तो इच्छा एक प्रकारस्य व्यापारः अस्ति, तत् व्याकरणरीत्या एतत् क्रिया अस्ति, किन्तु नैयाकरणं तत् गुणं मन्यते. अत्रापि कश्चन इच्छानुकूलव्यापारः आत्मनुसंयोग अनुकूलव्यापारः भवति. कथम् इच्छाव्यापारः सूचयति? एतत् अस्ति आत्मनुसंयोग अनुकूलव्यापारः. आत्मनि इच्छा इति व्यवहाररीत्या यदि मया वदामः, शब्दं मनसा संयोगः भवति. तथा आत्म एक
इत्युक्ते हा यत्र इच्छा जायते तत्र आत्ममनसंयोगः भवेत्, अतः तदनुकूलव्यापारः कश्चन भवति. यद्यपि इच्छा इति भाववाचकप्रत्यययोजनेन सञ्जातं, तथापि कश्चन व्यापारः भवत्येव, इच्छानुकूलव्यापारः इत्युक्ते आत्ममनसंयोगानुकूलव्यापारः भवति एव, अतः क्रिया भवति एव.
यदा बालकः कथम् इच्छति इत्युक्ते बालकः कथम् इच्छति इति वाक्ये इच्छति इति कश्चित् व्यापारः भवति. तो बालकस्य मनसि घटस्य इच्छा उत्पद्यते इति तस्य आत्मनि संयोग व्यापारः भवति. अतः इच्छति व्यापारं सूचयति, अतः इच्छति क्रिया अस्ति. किन्तु नैयाकरणा वदति इच्छति इति गुण अस्ति, सा इच्छा बालक इच्छावान् अस्ति, घटस्य इच्छावान् अस्ति, तत् गुणः अस्ति नैयाकरण मते. इच्छति क्रियापदम् अस्ति किल, इच्छति पदं क्रिया बोधयति वा गुणं बोधयति वा इति प्रश्ने सति व्याकरणदृष्ट्या क्रियां बोधति. व्याकरणदृष्ट्या इच्छति इति क्रिया सङ्केतं करोति.
हा समीचीनम् इति अस्ति सारांशः. व्याकरणदृष्ट्या इच्छा, इच्छनं, भावार्थक शब्दाः अपि क्रियाम् अथवा व्यापारं बोधयति इति व्याकरणस्य वैयाकरणानां दृष्टिः. नैयायिकानां तु तत्सर्वं गुणः भवेत् इति दृष्टिः. अस्तु, अधुना सुनीलमहोदय, भवता यद् श्रुतम् अवगतं किञ्चित् पुनः प्रतिपादयति वा? इच्छति चेत् वाक्यद्वयं त्रयं मिलित्वा पठित्वा प्रतिपादयतु तत्सर्वम्.
अहं प्रयत्नं करोमि. अत्र इदानीं श्रोतुः प्रश्नः अस्ति, पिण्डीभावः क्रिया वा इति. अतः प्रतिपक्षी तद् अङ्गीकरोति, तद् पिण्डीभावः इति क्रिया इति. अत्र नैयायिकानां च वैयाकरणानां चिन्तनं कीदृशम् इति स्वीकृत्य अत्र मतभेदः अस्ति इति अत्र अस्ति. अत्र इच्छा इति धातुः अत्र स्वीकृत्य इच्छा इति गुणः इति नैयायिकानां मतमस्ति, परन्तु व्याकरणदृष्ट्या तत्र क्रिया भवति इति वैयाकरणानां मतमस्ति. अतः अत्र इच्छति इति गुणं बोधयति इति नैयायिकानां मतमस्ति, परन्तु क्रियां बोधयति इति वैयाकरणानां मतम्. अत्र इत्युक्ते अत्र इच्छा इति गुणः अत्र कर्तरि अस्ति इति कारणेन अत्र आश्रयः अपि अस्ति इति तेषां मतमस्ति. अतः तिङ् प्रत्ययस्य योजनेन अत्र क्रिया भवति इति वैयाकरणं.
तिङ् प्रत्यययोजनेन इत्युक्ते कर्ता सूचितः भवति कथं? कर्तरि प्रयोगे इच्छति, परन्तु इच्छा कुत्र अस्ति तदा? कर्तरि अस्ति, सः इच्छति. इच्छति इत्यनेन इच्छायाः कर्ता, इच्छायाः आश्रयः भवति. अपि च इष् धातोः इच्छा इति अर्थः, धातोः अर्थः तादृशः इति चेत् कर्तरि एका क्रिया अस्ति, सा क्रिया इच्छा इति. यद्यपि इच्छा इति नामपदम् इति भाति, तथापि वैयाकरणानां मतानुगुणम् इच्छा इति क्रिया. अस्तु अग्रे.
अतः वैयाकरणाः वदन्ति इच्छा इति स्वयं क्रिया इति, गुणः नास्ति इति. अत्र धातुः अत्र क्रियाम् इत्युक्ते व्यापारं बोधयति इति तेषां मतमस्ति. पुनः अन्येकम् उदाहरणमस्ति पाकः इति. अत्र पच् धातोः परिवर्तनं कथं भवति इति घञ् प्रत्यय उपयुज्य तेषां वचनमस्ति. अतः अत्र पच् घञ् उपयुज्य अत्र पाकः इति भवति इति. तद्वत् इच्छा अपि अस्ति इति तेषां मतम्. अत्र अत्र अस्ति तण्डुल अवयव शैथिल्य अनुकूलव्यापारं बोधयति इति. अतः अत्र एकः व्यापारः अस्ति, तद् भूत्वा अत्र पाकः इति भवति इति.
इत्युक्ते पूर्वं शैथिल्यं न आसीत्, अधुना अभवत् इति एव तण्डुलावयवशैथिल्यव्यापारः.
तद्वत् एव इच्छा इति अपि तेषां मतम्. अत्र अत्र क्रिया बोधयति, क्रियां बोधयति. अनन्तरं अत्र अत्र धात्वर्थम् एव बोधयति, धात्वर्थस्य व्यापारः अस्ति इति. अतः अत्र व्यापारः एव व्यापारं स्वीकृत्य अत्र इच्छनम् इच्छा इति ते वदन्ति. अतः इच्छानुकूलव्यापारः
इत्युक्ते महोदय इतोपि एकं वक्तव्यमस्ति. पच् धातुतः घञ् प्रत्ययः संयुक्तः. घञ् कीदृशप्रत्ययः? भावे प्रत्ययः घञ् इति इत्युक्ते भावसूचकप्रत्ययः. तद् युज्यते चेत् पाकः इति पदं निष्पद्यते इत्युक्ते भाववाचकः इति वक्तुं शक्यते. परन्तु वैयाकरणाः किं वदन्ति?
ते वदन्ति अत्र क्रियां बोधयन्ति इति.
इत्युक्ते तण्डुलावयवशैथिल्यानुकूलव्यापारः इति धात्वर्थः तु तिष्ठति खलु अधुनापि. व्यापारः इति यत्र वदन्ति तत्र क्रिया एव इति ते वदन्ति. अस्तु अग्रे तद्वदेव
तद्वदेव आम् इष् अधुना क्रिया बोध्यते तदुत्तरवर्ति अङ् प्रत्ययः भावं बोधयति इति. अतः अत्र अयं प्रत्ययः धात्वर्थमेव बोधयति धात्वर्थश्च व्यापारः इति. पुनः तदेव वदति अत्र व्यापारः एव अस्ति इति.
धातोः अर्थः व्यापारः. व्यापारः इत्युक्ते क्रिया. तावत् अवगन्तव्यमस्ति. अस्तु अग्रे.
अत्र इच्छा इत्युक्ते व्यापारः इच्छनम् इति इच्छा इति. अत्र पुनः अत्र इच्छानुकूलव्यापारः आत्ममनसंयोग अनुकूलव्यापारः भवति इति. अतः बालकः घटम् इच्छति इत्युक्ते अत्र बालकस्य मनसि कश्चन व्यापारः भवति इच्छा इति. अतः इच्छति इति क्रियापदम् अस्ति इति वैयाकरणानां मतं व्याकरणदृष्ट्या क्रियां बोधयति.
नैयायिकानां दृष्ट्या
गुणमेव बोधयति.
इच्छा इति गुणः बालके अस्ति इति नैयायिकानां दृष्टिः. परन्तु वैयाकरणाः वदन्ति इच्छा इति एका क्रिया जायते, इच्छानुकूलव्यापारः जायते बालके इति वैयाकरणानां दृष्टिः. बुद्धम्? समीचीनम्. अस्तु अग्रे सरेम. राजेन्द्र महोदय.
भगिनि, इत्युक्ते सारांशत्वेन एवं वक्तुं शक्नुमः वा, क्रिया अस्ति तस्य फलमस्ति नैयायिकानां मतानुगुणं क्रिया भिन्नमस्ति, तस्याः फलं भिन्नमस्ति. किन्तु वैयाकरणानां मतानुगुणं क्रिया अपि च तस्याः फलं द्वयमपि क्रिया एव.
सत्यं सत्यं महोदय. भवतः पूर्वं दत्तम् उदाहरणं पश्यामश्चेत् पेषणम् इति, तेन पिण्डीभावः जायते, पिण्डीभावः फलम् इति गुणः नैयायिकानां मते. वैयाकरणानां मते पेषणक्रिया पुनः पिण्डीभावः इति एका क्रिया चूर्णे अस्ति इति.
तयोः मध्ये भेदमेव नास्ति, फलमपि क्रिया एव इति तेषां मतम्.
हा तेषां मतम्. अहं किञ्चित् महोदयमपि पृष्टवती बहुषु दिनेषु बहुभ्यः दिनेभ्यः पूर्वम् एकं वार्तालापं जातमासीत् वर्गे. रामः वनं गच्छति इति एकं वाक्यं. नैयायिकाः वदन्ति वननिष्ठ कर्मता निरूपित गमनानुकूल कृतिमान् रामः इति. तत्रापि तेषाम् आशयः रामः कीदृशः कृतिमान्, तस्मिन् कश्चन गुणः अस्ति इति. वैयाकरणानां मते तमेव वाक्यं रामः वनं गच्छति इति रामकर्तृकः वनकर्मकः गमनानुकूलव्यापारः इति वैयाकरणाः इति किञ्चित् काचित् चर्चा जाता आसीत्. इत्युक्ते भिन्नेषु शास्त्रेषु भिन्नदृष्ट्या पश्यन्ति एकमेव विषयम् इति.
प्रायः वैयाकरणानां दृष्ट्या सर्वं धातोः एव जायते किल, अतः ते सर्वं क्रिया इति भावयन्ति.
सत्यं. नामपदानि अपि धातुतः एव भवन्ति खलु.
आम् आम्
आम्
अस्तु भगिनि, धन्यवादः.
समीचीनम्. अस्तु राजेन्द्रमहोदय अग्रे.
आम् भगिनि. श्रोता जानाति अपि तथा वा क्रियाबोधकः. प्रतिपक्षी सत्यं, नैयायिकाः वदन्ति यत् न्यादातोः फलमात्रम् अर्थः व्यापारः न प्रतीयते इति. किन्तु अत्रापि आत्ममनसंयोग अनुकूलव्यापारः इति वैयाकरणाः वदन्ति नागेशेन प्रतिपादितं. श्रोता श्रोतुः मनसि इतोपि किञ्चित् संशयः अस्ति चिन्तयामि, तत् सः वदति जानाति यथा इच्छति यथा तथा तथैव जानाति यथा वदामः, तदपि क्रियाबोधकः अस्ति वा. प्रतिपक्षी वदति सत्यं, न्यायिकाः वदन्ति यत् न्यायदातोः फलमात्रम् अर्थः व्यापारः न प्रतीयते. न्यायिकाः वदन्ति यथा न्यायदातोः प्रयुज्यामः तथा तत्र फलमात्रम् अर्थः एव अस्ति, तत्र कोऽपि व्यापारः न प्रतीयते. यत् कारणात् तत् गुणम् एव अस्ति, परन्तु तत्र कोऽपि व्यापारः न प्रतीयते, क्रिया नास्ति. किन्तु अत्रापि आत्ममनसंयोग अनुकूलव्यापारः इति वैयाकरणाः वदन्ति. व्याकरणाः वदन्ति यथा यथा ज्ञानं जायते तत्र अपि आत्ममनसंयोग अनुकूल कोऽपि व्यापारः जातः उत्पद्यते, तत्कारणात् तत् वैयाकरणाः वदन्ति सः अपि जानाति, तत् अपि क्रियाबोधकशब्दः एव अस्ति. नागेशेन कोऽपि प्रायः चिन्तयामि वैयाकरणः तेन प्रतिपादितं तत् तत् सम्यक्तया.
हा इत्युक्ते इतोपि एकम् उदाहरणं ज्ञानम् इति, पुनः ल्युड् इति गमनम् इति यथा तथा ज्ञानं तत्सर्वं क्रियामेव बोधयति इति वैयाकरणानां मतम्. अस्तु महोदय, अग्रे गच्छतु. नूतनं किमपि नास्ति तत्र.
ज्ञानम् अपि क्रिया इति विचारो वा? श्रोता पुनः वदति अस्तु, यथा ज्ञानं वदामः तत् सः अपि क्रिया एव अस्ति, ज्ञानमपि क्रिया एव अस्ति इति विचारः अस्ति वा भवतः? प्रतिपक्षी, ज्ञानं नाम ज्ञान अनुकूलव्यापारः. ज्ञानं स्वयं क्रिया, जानाति इत्यनेन कर्ता ज्ञानक्रियायाः आश्रयः. यथा यथापि पूर्वस्मिन् परिच्छेदे आसीत् तत् अत्रापि तादृशी एव तर्कः अस्ति. अस्ति ज्ञानं नाम ज्ञान अनुकूलव्यापारः. यथा वदामः यथा इच्छा आसीत् तथैव ज्ञानम् अपि, तत्र ज्ञान अनुकूलव्यापारः किमपि प्रचलति, तत् ज्ञानं स्वयं क्रिया एव अस्ति. ज्ञानं तु पुनः च यथा ल्युट् प्रत्ययः अस्ति, भावं बोधयति इत्यनेन कर्ता ज्ञानक्रियायाः आश्रयः. यः जानाति सः कर्ता ज्ञानक्रियायाः आश्रयः एव अस्ति. ज्ञानं स्वयं अथवा क्रिया एव अस्ति. यथा चैत्रः घटं जानाति इत्यस्मिन् घटविषय ज्ञानवान् चैत्रः. अत्र जानाति इत्यनेन कश्चन आत्मस्मरणसंयोगव्यापारः इत्यस्य इङ्गितं. यथा वदामः चैत्रः घटं जानाति, तत् घटविषय ज्ञानवान् चैत्रः घटविषय ज्ञानवान् अस्ति, तस्मिन् मनसि तस्मिन् कोऽपि आत्ममनसंयोगव्यापारः प्रचलति, तत् कारणात् तत् जानाति कश्चन क्रियाः एव अस्ति, सः एव इङ्गितं, तत् एव सङ्केतम् अस्ति. तत्र कोऽपि क्रियाः एव जानाति अथवा कोऽपि आत्ममनसंयोगव्यापारः प्रचलति, तत् क्रिया एव अस्ति.
इत्युक्ते तस्मिन् चैत्रे ज्ञानं जायते इति चेत् तत्र एकः व्यापारः भवेत्, ज्ञानानुकूलव्यापारः भवेत्, ज्ञानानुकूलक्रिया भवेत् इति वैयाकरणानां मतिः.
यतोहि आत्ममनसोः कश्चन व्यापारः यदि नास्ति तर्हि चैत्रः न जानीयात्. प्रतिपक्षे पुनः वदति यत्र तत् आत्ममनसः यत् कोऽपि कश्चन व्यापारः न जायते, यावत् कोऽपि व्यापारः न जायते तावत् तत्र चैत्रः न जानीयात्, सः न जानाति घटविषयज्ञानं तस्मिन् न उत्पद्यते. यदा तस्मिन् घटविषयज्ञानं उत्पद्यते तदा तु आत्ममनसि कश्चन व्यापारः जायते, तत्कारणात् सः जानाति, अन्यथा सः न जाति, तस्मिन् कोऽपि ज्ञानः न उत्पद्यते. जानाति इत्यस्य कथनेन आत्ममनसंयोगः अङ्गीकर्तव्यः, नो चेत् ज्ञानस्य उत्पत्तिः न भवति, तदर्थम् आत्ममनसंयोगः स्वीकर्तव्यः इति वैयाकरणाः वदन्ति। यथा वदामः जानाति कोऽपि क्षेत्रः जानाति अथवा अन्य कोऽपि जानाति तत् कथनेन आत्ममनसंयोगः तत्र भवेत् तत्र सः तु अङ्गीकर्तव्यः अस्माभिः यथा अन्यथा यत्र यत्र तत् यावत् तथा तत्र आत्ममनसंयोगः न व्यापारः न प्रचलति तत् तावत् तत्र ज्ञानं न उत्पद्यते कस्मिन् मनसि। तदर्थम् आत्ममनसंयोगः स्वीकर्तव्यः इति वैयाकरणाः वदन्ति। वैयाकरणाः वदन्ति तत् यत्र कुत्रापि ज्ञानम् उत्पद्यते तत्र आत्ममनसंयोगः तु भवति एव तत् आत्ममनसंयोगव्यापारः अनुकूलव्यापारः भवति एव तथैव तदेव तत्र ज्ञानम् उत्पद्यते अन्यथा क्षेत्रः अथवा अन्य कोऽपि न तथा न जानाति ज्ञानं न उत्पद्यते। नाम जानाति इत्यस्य कथनेन काचित् क्रियां बोधयति यथा वदामः जानाति तत् इङ्गितं तत् क्रियां कोऽपि किमपि क्रियां बोधयति तत् ज्ञानसामान्यं प्रति आत्ममनसंयोगस्य कारणत्वं वदन्ति नैयायिका अपि ज्ञानसामान्यं प्रति नैयायिकाः अपि तथैव वदन्ति आत्ममनसंयोगः तत् भवति तत् ज्ञान सामान्यं प्रति तेषामपि तथैव चिन्तनम् अस्ति।
कीदृशं कारणम् इति स्मरति वा ज्ञानस्य आत्ममनसंयोगः ज्ञानस्य कारणं कीदृशं कारणं स्मरति
तं वायि कारणं
चिन्तयतु। ज्ञानं कुत्र उत्पद्यते
आत्मनि
आत्मा इति द्रव्यं ज्ञानस्य अधिकरणं समवायेन तर्हि आत्मा इति समवायिकारणम्। आत्ममनसंयोगः यथा कपालद्वयसंयोगः तद्वद् आत्ममनसंयोगः इति ज्ञान हा असमवायिकारणम् इति नैयायिकाः अपि अङ्गीकुर्वन्ति। परन्तु किं
ते वदन्ति तत्र विशेषकारणम् इति ते स्वीकुर्वन्ति तत्र अस्माकं कारणम् अस्ति तत् आत्ममनसंयोगः ज्ञानस्य प्रति कारणं परन्तु तेन अङ्गीकुर्वन्ति तत् कोऽपि क्रिया अस्ति अत्र।
हा समीचीनम् इति अस्ति ज्ञान आत्ममनविशेषः अथवा आत्ममनसंयोगः कारणत्वेन स्वीक्रियते नैयायिकानां मतानुगुणम् ते अपि अङ्गीकुर्वन्ति तत्र अस्ति आत्ममनसंयोगः परन्तु कारणत्वेन अपि च संयोगः इति गुणः परन्तु वैयाकरणाः किं वदन्ति
ते वदन्ति तत्र तत् काचित् व्यापारः प्रचलति यथा आत्ममनस अनुकूल कोऽपि व्यापारः भवति तत् कारणात् तस्य ज्ञानम् उत्पद्यते
इति अस्ति महोदय समीचीनम् आत्ममनसंयोगरूपव्यापारः इति अस्ति सम्यक् अस्तु इत्यत्र कोऽपि प्रश्नः अथवा भ्रमः नास्ति इति मन्ये अग्रे सरेम वर्धिनी भगिनी
किन्तु ज्ञान इच्छा कृत्य अर्धकधातुस्थले केवलं फलमेव प्रतीयते व्यापारो नास्ति इति नैयायिकाः तत्रापि काचन क्रिया अस्ति एव आत्ममनसंयोगव्यापारः इति वैयाकरणाः व्यापारं विना फलं नास्ति एव न उत्पद्यते देवदत्तादीनां व्यापारं विना पाकक्रियाजन्यफलं न जायते तद्वत् इच्छा अपि ज्ञानमपि केनचित् व्यापारेण भवति। ज्ञान इच्छा कृत् अर्धकधातुस्थले केवलं फलमेव अस्ति व्यापारः नास्ति इति नैयायिकाः मतमस्ति नैयायिकायाः मतम्
हा इत्युक्ते ज्ञान कृतिः इति अपि दृष्टवन्तः आत्मनः कश्चन गुणः अस्ति प्रयत्नम् अथवा कृतिः इति खलु आत्मनः निरूपणसन्दर्भे वयं दृष्टवन्तः ज्ञानं सुखदुःख इच्छा द्वेषा कृतिः तर्हि नैयायिकाः वदन्ति तस्य स्थले कस्मिंश्चित् ज्ञानं जायते, इच्छा जायते, कृति जायते इत्यस्मिन् स्थले फलरूपेण एते सर्वे प्रतीयन्ते किल, तत्र हा इति कः वदति?
नैयायिकाः वदन्ति.
समीचीनं भगिनि, अस्तु अग्रे.
तत्रापि काचन क्रिया अस्ति एव, आत्ममनसंयोगव्यापारः इति वैयाकरणः. आत्ममनसंयोगव्यापारः इति वैयाकरणानां मतं क्रिया अस्ति. आत्ममनसंयोगव्यापारः तत् क्रिया, व्यापारं विना फलं नास्ति. देवदत्तादीनां
इति कः वदति? इति कः वदति व्यापारं विना फलं नास्ति इति कः वदति?
वैयाकरणः.
हा, बहु सम्यक्, अस्तु अग्रे.
व्यापारं विना फलं नास्ति, न उत्पद्यते. देवदत्तादीनां व्यापारं विना पाकक्रियाजन्यफलं न जायते. तद्वत् इच्छा अपि ज्ञानमपि केनचित् व्यापारेण भवति. व्यापारम् आवश्यकं. व्यापारं विना पाकक्रियाजन्यफलं न जायते. इच्छा अपि ज्ञानमपि केनचित् व्यापारेण एव भवति.
इति बुद्धं स्यात् खलु? इच्छा ज्ञानं यत्र उत्पद्यते, यथा राजेन्द्रमहोदयेन उक्तम्, इच्छा ज्ञानं यत्र उत्पद्यते तत्र आत्ममनसंयोगरूपव्यापारः भवति एव. व्यापारेण विना न किमपि न उत्पद्यते इति के वदन्ति? पाकक्रियाजन्यफलं. पाकक्रियाजन्यफलम् इत्युक्ते किं? पाकानन्तरं यत्किमपि जायते तद्
तदपि शैथिल्यपरिवर्तनं ओदनरूपेण.
हा, खादनयोग्य ओदनं तदा जायते खलु फलरूपेण. हा, तदपि केन जायते? देवदत्तादीनां व्यापारेण. देवदत्तः इति कश्चन किञ्चित् उदाहरणं दत्तं तत्र. कर्ता कोऽपि वदतु.
प्रश्नः
अस्तु अस्तु तदेव भगिनि. व्यापारं भवति चेत् एव देवदत्तादीनां
पाकक्रियाजन्यफलं न जायते.
अस्तु इति वार्ता. क्रिया विना तत्सर्वं न जायते, फलं न जायते इति ते वदन्ति. अस्तु अग्रे अजितमहोदय समापयतु अग्रिमपरिच्छेदं पठित्वा. अजित् महोदय अस्ति किम्? महोदय अस्तु, शुकवन महोदय, एकनिमिषः सः चाट् मेसेज् प्रेषितवान्. कुत्र अस्ति महोदय? अजित् महोदय वक्तुम् इच्छति वा? अस्तु, शुकवन महोदय, तस्य कनेक्षन् मध्ये प्राब्लम् अस्ति, भवान् वदतु.
अस्तु भगिनि. लोके च बालकः इच्छति, बालकः वा बालकः जानाति वा इत्यादिषु स्थलेषु भावः एवमस्ति यत् बालकः किमपि करोति किल. व्याकरणदृष्ट्या तथैव भवति. अपि च तथैव च्विप्रत्ययः यत्र यत्र भवति तत्र सर्वत्र व्याकरणदृष्ट्या क्रिया अस्ति एव. यथा पिण्डीभावः क्रिया एव इति इदानीं चर्चायाः समर्थनं प्रतिपक्षीकरोति. लोके वयं व्यवहरामः किल बालकः इच्छति, बालकः जानाति इति यदा वयं व्यवहरामः तस्मिन् सन्दर्भे विवक्षा, अस्माकं विवक्षा किम् इत्युक्ते सः बालकः किमपि करोति इति क्रियाम् एव मनसि विवक्षां कृत्वा तादृशं वयं वदामः बालकः इच्छति, बालकः जानाति इति किमपि करोति। यदा बालकः पठति, बालकः गच्छति, तादृशं बालकः इच्छति, बालकः जानाति इति वयं प्रयोगं लोके अस्माभिः कृतः। व्याकरणदृष्ट्या अपि तथैव अस्ति। च्वी प्रत्ययः यत्र यत्र भवति तत्र सर्वत्र व्याकरणदृष्ट्या क्रिया एव अस्ति। पिण्डीभावः इति समासे पिण्डी इत्यत्र च्वी प्रत्ययः वर्तते, अतः पिण्डीभावः इति यदा वदामश्चेत् तत् विलक्षणसंयोगगुणः न सूचयति, किन्तु क्रियामेव सूचयति इति प्रतिपक्षी वदति।
इति केन मतेन तथा अस्ति, केन दृष्ट्या?
वैयाकरणानां दृष्ट्या।
वैयाकरणानां दृष्ट्या नैयायिकाः तु पिण्डीभावः गुणः इत्येव अङ्गीकुर्वन्ति खलु? अस्तु। अपि च श्वी प्रत्ययस्य तादृशः अर्थः अपि अस्ति इति मन्ये। अभूत तद्भावः इत्युक्ते यद् नासीत् तद् अभवत् इति किल, तर्हि च्वी प्रत्ययः स्वयमपि च्वी प्रत्ययः क्रियां बोधयति। तर्हि यत्र यत्र च्वी तत्र तत्र व्याकरणदृष्ट्या क्रिया अस्ति एव, पिण्डीभावः क्रिया वैयाकरणानां मतानुगुणम्।
इदानीं सम्यक् अवगतवान् भगिनि, वैयाकरणानां किमर्थं सर्वं क्रियाम् इति। रामः इति वदामश्चेदपि रमणक्रियावान्
चेत्
यस्मिन् रमणक्रिया वर्तते तस्य आश्रयः, तस्याः क्रियाः आश्रयः रामः इति वैयाकरणानां दृष्टिः।
प्रायः आं तथैव अस्ति इति चिन्तनीयविचारः, यतोहि वैयाकरणाः सर्वं तु धातुतः आगच्छति खलु, सर्वाणि पदानि निष्पादयन्ति, तर्हि धातोः व्यापारः इति अर्थः इति तेषां दृष्टिः।
आम्, व्यक्ति इति वदामश्चेत् तस्य व्यापारस्य आश्रयः, यस्मिन् व्यापारः जायमानमस्ति इदानीं।
कर्तरी तादृशव्यापारः अस्ति। अस्तु अस्तु, अन्यः कोऽपि प्रश्नः अथवा अन्यत् किमपि चिन्तनं कस्यचित्? अस्तु, नास्ति चेत् विरमामः। धन्यवादः।
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 शुभरात्रि।
शुभरात्रि।